अथ श्री व्यासराजस्तोत्रम्। वंदे मुकुंदमरविंदभवादिवंद्यम् इंदिंदिराव्रततिमे च कमाकटाक्षैः वंदीकृताननममन्दमतिं विदध्यात् आनंदतीर्थहृदयाम्बुजमत्तभृङ्गः श्रीव्यासयोगे हरिपादरागे भक्तातिपोगे हितदक्षसद्गे त्यागे विरागे विषयेषु भोगे मुक्तौ सदा गीतसुरेन्द्रसङ्गे लक्ष्मीशपादाम्बुजमत्तभृङ्गः सदा दशप्रज्ञनयप्रसङ्गः अद्वैतवादे कृतमूलभङ्गो महाव्रतीशो विषयेष्वसङ्गः सदा सदा यत्तमहानुभावो भक्ताघतीव्रोच्चयतीव्रदावः दौर्जन्यविध्वंसनदक्षरावशिष्येषु यो यच्छति दिव्यगावः अद्वैतदावानलकालमेघोरमारमस्नेहविदारिताघः वाग्वैखरी निर्जितसंशयौघो मायामतव्रातहिमे निदाघः मध्वसिद्धान्तदुग्धाब्धिवृद्धिपूर्णकलाधरः व्यासराजयतीन्द्रो मे भूयादीप्सितसिद्धये यन्नामग्रहणादेव पापराशिः पलायते सोऽयं श्रीव्यासयोगीन्द्रो निहन्तु दुरितानिनः यन्मृत्तिकादर्शनमात्रभीतः क्वचित् पिशाचस्तदनुव्रतेभ्यः दत्त्वा धनं वाञ्छितमापतस्य तैर्वर्जितायामचिरेण मुक्तिम् यत्काशिनासिका मुक्तजलाक्तश्चकितान्तरः व्याघ्रो महानपि स्प्रष्टुं नाशकत्तमिहाश्रये द्वात्रिंशत्सप्तशतकमूर्तेर्हनुमतः प्रभोः प्रतिष्ठाता स्मृतिख्यातस्तम्भजे व्यासयोगिनम् सीमानं तत्र तत्रैत्यक्षेत्रेषु च महामतिः व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये मध्वदेशिकसिद्धान्तप्रवर्तकशिरोमणिः सोऽयं श्रीव्यासयोगीन्द्रो भूयादीप्सितसिद्धये भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः पलायन्ते श्रीनृसिंहस्थानं तमहमाश्रये वातज्वरादिरोगाश्च भक्त्या यमुपसेवतः दृढव्रतस्य नश्यन्ति पिशाचाश्च तमाश्रये तारपूर्वं बिन्दुयुक्तं प्रथमाक्षरपूर्वकम् चतुर्थ्यन्तं च तन्नाम नमः शब्दविभूषितम् पाठयन्तं माध्वनयं मेघगम्भीरया गिरा ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विन्दति रत्नसिंहासनारूढं चामरैरभिवीजितम् ध्यायन्नावर्तयेद्यस्तु महतीं श्रियमाप्नुयात् प्रह्लादस्यावतारोऽसावहीशानुप्रवेशवान् तेन तत्सेविनां नृणां सर्वमेतद्भवेद्ध्रुवम् नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने नमतां कल्पतरवे भजतां कामधेनवे व्यासराजगुरो मह्यं त्वत्पदाम्बुजसेवनात् दुरितानि विनश्यन्तु यच्छ शीघ्रं मनोरथान् यो व्यासत्रयसंज्ञकान् दृढतरान् मध्वार्यशास्त्रार्थकान् रक्षद्वज्रशिलाकृतीन् बहुमतान् कृत्वा परैर्दुस्तरान्। प्रायच्छन् निजपादयुग्मसरसेजासक्तनृणां मुदा सोऽयं व्यासमुनीश्वरो मम भवेत्तापत्रयक्षान्तये मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुगः व्यासराजमुनिश्रेष्ठः पातु नः कृपया गुरुः व्यासराजव्यासराज इति भक्त्या सदा जपन् मुच्यते सर्वदुःखेभ्यः सदन्तर्यामिणो बलात् स्तुवन्ननेन मन्त्रेण व्यासराजाय धीमते अभिषेकार्चनादीन्यः कुरुते स हि मुक्तिभाक् गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी तया सर्वं लभेद् धीमांस्तस्मादेतत् सदा पठेत् इति श्रीविजयीन्द्रतीर्थविरचितं श्रीव्यासराजस्तोत्रम्।